इयम् आकाशवाणी सम्प्रति वार्ताः श्रूयन्ताम् प्रवाचकः पुनीत त्रिपाठी। अथ वार्ताः। केन्द्रीय वाणिज्य उद्योग मन्त्री पीयूष गोयलः अवदत् यत् ऐतिहासिकः भारत अमेरिका व्यापार सन्धिः द्वयोः देशयोः मध्ये सम्बन्धान् सुदृढं कर्तुं 47-2000 वर्षपर्यन्तं राष्ट्रं विकसित भारतं कर्तुं भारतस्य यात्राम् अग्रे नेतुं च महत्वपूर्णः पदाक्षेपो वर्तते। लोकसभायां ह्यः प्रवदन् श्रीगोयलः अवदत् यत् अस्मिन् व्यापार समन्वये भारतं संवेदनशीलक्षेत्रेषु विशेषतः कृषि दुग्धक्षेत्रयोः च स्वहितानां रक्षणे सफलतया समर्थः अभवत्। व्यापार व्यवहारस्य लाभ विषये श्रीगोयलः अवदत् यत् सन्धिना लघु मध्यम उद्यमानां एमएसएमई इत्येतेषां कुशल कर्मचारिणाम् उद्योगानां च कृते नूतनाः अवसराः उद्घाटिताः भविष्यन्ति।
यह समझौता भारतीय निर्यातकों को विशेष रूप से श्रम प्रदान क्षेत्रों और विनिमय में महत्वपूर्ण तुलनात्मक लाभ भी प्रदान करता है। खाद्य और कृषि क्षेत्र में भारत की प्रमुख संवेदनशीलता का पूर्णतः ध्यान रखा गया है। साथ ही यह साझेदारी लघु और मध्यम उद्यमी एमएसएमई उद्यमियों कुशल श्रमिकों और उद्योग के लिए नए अवसर खोलेगी।
विपक्षस्य कोलाहलपूर्णे वातावरणे राष्ट्रपतेः अभिभाषणस्य धन्यवादप्रस्तावस्य विषये संसद उभयोः सदनयोः चर्चा अभवत्। लोकसभायाः कार्यचरणं ह्यः निरन्तरं तृतीय दिवसेऽपि बाधितम्। अमेरिका भारत व्यापार सन्धि विषये चीनदेशेन सह सीमा विवादस्य विषये च विपक्षिदलानि सर्वकारस्य विरुद्धम् उद्घोषं कृतवन्तः। लोकसभायां त्रीणि स्थगनानि दृष्टानि, अन्ततो गत्वा दिवसपर्यन्ताय सदनं स्थगितम्। राज्यसभायां केन्द्रीयमन्त्री तथा सभाध्यक्षः जेपी नड्डा चर्चायाम् अवदत् यत् राष्ट्रपतेः अभिभाषणे भारतस्य विकासगाथा अभिलिखिता तथा च तत् अत्यन्तं प्रेरकम् आसीदिति। चर्चायां भागं स्वीकृत्य राज्यसभायां विपक्षस्य नेता मल्लिकार्जुन खड़गे इत्यनेन आरोपितं यत् मोदी प्रशासनावधौ सामाजिक न्यायः सौहार्दः च क्षीणौ अभवताम्। केन्द्रीय सहकारिता मन्त्री अमित शाहः अद्य नवदिल्ल्यां भारतस्य प्रथमस्य सहकारिता आधारितस्य राइड हैंडलिंग मञ्चस्य भारत टैक्सी इत्यस्य उद्घाटनं करिष्यति। सहकारिता मन्त्रालयेन उक्तं यत् एतत् मञ्चं सारथि इति नाम्ना निर्दिष्टानां चालकानां स्वामित्वं परिचालनं मूल्यनिर्माणं च केन्द्रे स्थापयिष्यति तथा च तान् शोषक समुच्चया आधारित प्रतिमानात् मुक्तिं प्रदास्यति। भाजपेति दलाध्यक्षः नितिन नवीनः अवदत् यत् मुख्यमन्त्री रेवन्त रेड्डी इत्यस्य नेतृत्वे तेलंगाना कांग्रेस सर्वकारः विभाजन राजनीतिं तुष्टीकरणं च कुर्वन् राज्यस्य हिन्दुमन्दिराणि परम्पराः च लक्ष्यीकरोति। तेलंगाना राज्यस्य महबूबनगरे ह्यः जनसभां सम्बोधयन् श्रीनवीनः अवदत् यत् भाजपेति दलं सनातन धर्मस्य हिन्दुजनानां भावानां रक्षणाय च प्रतिज्ञां करोतीति। कांग्रेस दलस्य कार्याणां परिणामाः शीघ्रमेव आगमिष्यन्ति इति सावधानं कृतवान्। तेलंगाना राज्ये सुशासनस्य विकासस्य च आवश्यकतायाम् अवलम्ब्य भाजपा प्रमुखः अवदत् यत् आगामि नगरपालिका निर्वाचने विजयं प्राप्तुं दलस्य लक्ष्यमस्ति। मणिपुर राज्ये राष्ट्रपतिशासनं निरस्तम् अभवत् तथा च भाजपेति दलस्य विधायकः युमनाम खेमचन्द सिंह मणिपुरस्य मुख्यमन्त्रिरूपेण शपथग्रहणं कृतवान्। गृहमन्त्रालयेन ह्यः मणिपुरराज्ये राष्ट्रपतिशासनस्य तत्क्षणप्रभावस्य निरसनस्य घोषणा कृता। तत्कालीनमुख्यमन्त्रिणः एन वीरेनसिंहस्य त्यागपत्रस्य अनन्तरं 25-2000 फरवरी मासस्य 13 राज्ये राष्ट्रपतिशासनं प्रावर्त्यत। अत्रान्तरे मणिपुर विधानसभा सचिवालयेन सूचितं यत् प्रवर्तमानस्य 12 मणिपुर विधानसभायाः 7 सत्रं श्वः भविष्यति। आईसीसी पुरुषाणां अंडर 19 क्रिकेट विश्वचषक क्रीडायां जिम्बाब्वे देशे भारत अफगानिस्तान देशयोः मध्ये जाते गतसायं उपान्त्यचक्रीय क्रीडायां भारतेन अफगानिस्तान दलं पराजितम् इति वार्ताः।